इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। गोंडा गोरखपुर मार्गे मनकापुर स्थानकस्य पार्श्वे चंडीगढ़ डिब्रूगढ़ एक्सप्रेस रेलयानम् रेलपट्टिकातः अधोगतम्। एतस्यां दुर्घटनायां द्वौ जनौ मृत्युमुपगतौ, सहैव विंशतिः जनाः व्रणिताः समभवन्। तेलंगानायां राज्यसर्वकारेण कृषकाणां सस्य ऋणमुक्तये षट्सहस्रकोटितोप्यधिकानि रूप्यकाणि निस्सारितानि। प्रथमचरणे एकादशलक्षाधिकाः जनाः लाभान्विताः भविष्यन्ति। भारतीय ऋतुविज्ञान विभागेन अद्यारभ्य दिनद्वयस्य अधिकवर्षायाः भविष्यवाणी कृतास्ति। अपि च भारतीय टेनिस क्रीडकः सुमित नागलः स्वीडिश ओपन प्रतिस्पर्धायां परिभूय बहिर्भूतः। अथ वार्ताः विशदीकृत्य। गोंडा गोरखपुर मार्गे मनकापुर स्थानकस्य पार्श्वे चंडीगढ़ डिब्रूगढ़ एक्सप्रेस रेलयानम् रेलपट्टिकातः अधोगतम्। एतस्यां दुर्घटनायां द्वौ जनौ मृत्युमुपगतौ, सहैव विंशतिः जनाः व्रणिताः समभवन्। तेलंगानायां राज्यसर्वकारेण कृषकाणां सस्य ऋणविमुक्तये षड्सहस्रकोटितोप्यधिकानि रूप्यकाणि निस्सारितानि। प्रथमचरणे एकादशलक्षाधिकाः जनाः लाभान्विताः भविष्यन्ति। न्यायमूर्तिः नोंगमेई कापम, कोटीश्वरसिंहः, न्यायमूर्तिः आर महादेवनश्च अद्य सर्वोच्च न्यायालयस्य न्यायाधीशत्वेन शपथग्रहणम् अकुरुताम्। भारतस्य मुख्य न्यायाधीशेन न्यायमूर्तिना डीवाई चंद्रचूड इत्यनेन शपथवचनं ग्राहितम्। इतः प्राक् न्यायमूर्तिः नोंगमेई कापम, कोटीश्वरसिंहः, जम्मू कश्मीर अथ लद्दाख उच्चन्यायालयस्य न्यायाधीशः आसीत्। भारतीय विदेश राज्यमंत्री कीर्तिवर्धन सिंहः ओमानस्थेन भारतीय राजदूतेन अमित नारंगेन दुर्घटनाग्रस्तः जलपोत एमवी प्रेस्टीज फाल्कन इत्यस्मिन् विषये साम्प्रतिकस्थितेः ज्ञानं लब्धवान्। एकस्मिन् सामाजिक सूचना प्रसार तंत्रजाले प्रसारिते संदेशे राज्यमंत्रिणा उक्तं यत् एकस्य भारतीयस्य पार्थिव शरीरमपि लब्धम् अस्तीति। राज्यमंत्रिणा एतदपि प्रोक्तं यत् स्थितिः निकटतया अवलोक्यते, प्रशासनञ्च सर्वविध सहायताम् आचरदस्ति। तेन आपदुद्धार कर्मणि निरतेभ्यः सर्वेभ्यः ओमान भारतयोः अधिकारिभ्यः साधुवादाः प्रदत्ताः। तेन मृतकस्य परिजनान् प्रति संवेदना व्यक्तीकृता। सर्वोच्च न्यायालयेन प्रोदीरितं यत् नीट इत्यस्य पुनर्परीक्षा दृढतया भवेद्, यतः अनेन सम्पूर्ण परीक्षायाः शुचिता प्रभाविता भविष्यति। मुख्य न्यायाधीशस्य डीवाई चंद्रचूडस्य नेतृत्वे सर्वोच्च न्यायालय पीठेन अद्य नीट यूजी चतुर्विंशत्यधिक द्विसहस्रतमस्याः मेडिकल प्रवेश परीक्षायाः संचालने सम्भूतानां कथिता नियमिततानां सन्दर्भे चत्वारिंशदधिक याचिकानां वादश्रवणं समारब्धम्। अन्वेषण सन्दर्भे पीठेन प्रख्यापितं यत् केन्द्रीयान्वेषणाभिकरणस्य अन्वेषणं यथावस्थमेव प्रचलिष्यति। केन्द्रीयान्वेषणाभिकरणेन यदि अन्वेषणे संबंधित विषयाणां प्रोद्घाटनं यदि करिष्यते तदा सम्बद्धापराधिनः सावधानाः भविष्यन्ति। मुख्य न्यायाधीशः डीवाई चंद्रचूडः, न्यायाधीशः जेडी पारदीवाला एवं मनोज मिश्रा इत्येतेषां समेकितपीठेन विवादित मेडिकल प्रवेश परीक्षया संबंधित याचिकाः समालक्ष्य निर्णायक वादश्रवणं समारब्धम्। पीठेन मे मासस्य पञ्चमदिनांके परीक्षायां कथिता नियमितताः समालक्ष्य कथितं यत् याचिकाकर्तृणः प्रमाणीकुर्वन्तु यत् प्रश्नपत्र प्रवञ्चना प्रणालीगतरीत्या समभवत्। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair इति चलदूरभाषीयतन्त्रांशेऽपि समुपलब्धो भविष्यति। नीट यूजी प्रवेशपरीक्षायाः प्रश्नपत्रप्रवञ्चनायां केन्द्रीयान्वेषणाभिकरणेन अद्य अखिल भारतीय आयुर्विज्ञान संस्थान पटना इत्यस्य चत्वारः छात्राः निगडिताः। एम्स पटनायाः कार्यकारी निदेशकः डॉ जी के पालः अवोचत् यत् ये छात्राः निगडिताः ते एमबीबीएस पाठ्यक्रमस्य द्वितीय तृतीय वर्षयोः छात्राः सन्ति। तेनोदीरितं यत् केन्द्रीयान्वेषणाभिकरणेन निगडितच्छात्राणां संगणकयन्त्राण्यपि स्वायत्तीकृतानि। एतैः छात्रैः सह केन्द्रीयान्वेषणाभिकरणस्य परिपृच्छा जायमाना अस्ति। काशी विश्वनाथधाम्नि स्पर्शदर्शनादयः दैनन्दिन चीटिकया प्राप्य प्रवेशाः आश्रावणमासं यावत् निरस्ताः सन्ति। विशेषतो निरसनादेशः श्रावणमासस्य सोमवासराय प्रवर्तते। श्रावणमासः अस्य आग्नमासस्य द्वाविंशतितमात् दिनांकात् समारभते। अगस्तमासस्य एकोनविंशे दिनांके च मासस्यास्यावसानं भविष्यति। आकाशवाण्याः वार्ताहरेण प्रोक्तं यत् नूतनाः दिङ्निर्देशाः दर्शनाय पूजनाय भक्तानां सुरक्षायै च सन्ति प्रस्ताविताः। विशिष्टाः दर्शनार्थिनः समयविशेषे एव आगन्तुं प्रभवन्ति। आरक्षिमहानिदेशकः सुरक्षाविषये वार्ताहरान् इत्यपि अकथयत् यत् काशी विश्वनाथ वाराणसीं प्रति आगन्तृभ्यः भक्तेभ्यः सुरक्षाप्रदानाय सर्वेषां दर्शकानां भक्तानां वा सामग्र्यः मन्दिरप्रदेशात् बहिरेव सुरक्षितस्थानेषु स्थापयिष्यन्ते इति। केन्द्रीयगृहमन्त्री अमितशाहः नवदिल्ल्यां नारकोसमन्वयकेन्द्रस्य सप्तमस्य शीर्षस्तरीयोपवेशनस्य अध्यक्षतां कुर्वन्नस्ति। अस्योपवेशनस्य उद्देश्यं तावत् मादकद्रव्याणां तस्करणं सम्मुखीकर्तुं केन्द्रीयराज्यसर्वकारयोः अभिकरणानां प्रयासस्य समन्वयनम् इति वर्तते। गृहमन्त्रालयेन प्रख्यापितं यत् मादकद्रव्यसम्बद्धानि समाह्वानानि सम्मुखीकर्तुं सर्वकारेण असहिष्णुतायाः नीतिः समाश्रियते। भारतीय ऋतुविज्ञानविभागेन अद्यारभ्य दिनद्वयस्य अधिकवर्षायाः भविष्यवाणी कृतास्ति। अस्मिन् कालावधौ आन्ध्रप्रदेश यमनमयोः तटवर्तिषु क्षेत्रेषु तेलंगानायाञ्च वर्षाधिक्यस्य संभावना प्रवर्तते। एकोनविंशे विंशे च दिनांके चण्डीगढ़क्षेत्रे वर्षाधिक्यस्य संभावना अस्ति। कोंकण गोवादिषु द्विपक्षीयक्षेत्रेष्वपि भूरिशः वर्षायाः संभावना वर्तते। युवसम्बन्ध अथ खेलमन्त्री डॉ मनसुख मंडाविया प्रशासनस्य कीर्तिम् इति खेलो इंडिया राइजिंग टैलेंट आइडेंटिफिकेशन इत्यस्याभियानस्य द्वितीय चरणस्य श्वः नवदिल्ल्यां शुभारम्भो विधास्यति। मन्त्रालयेन प्रोक्तं यत् कीर्ति इत्यनेन नूतनाः क्रीडकाः अत्याधुनिक प्रविधिना अन्विष्य परिपोषयिष्यन्ते। प्राथमिकस्तरेण प्रातिभ्यम् अन्विष्य अग्रे नयनम् अस्याभियानस्य प्राथमिक कार्यमस्तीति मन्त्रालयेन प्रोक्तम्। संयुक्तराज्य अमेरिकायाः राष्ट्रपतेः जो बाइडेनः इत्यस्योपरि राष्ट्रपतेः नैर्वाचनिक समराङ्गणात् बहिर्गमनस्य स्थितिः जायते। जो बाइडेन इत्येषः कोरोना रोगेण ग्रस्तोऽभवत्। डेमोक्रेटिक पार्टीति दलस्य प्रभावशाली नेत्रा एवं कैलिफोर्नियायाः प्रतिनिधिन् एडम शिफ इत्यनेन सार्वजनिक रूपेण राष्ट्रपतिः जो बाइडेनः नैर्वाचनिक समराङ्गणात् बहिर्गन्तुं प्रकथितः। एबीसी वार्तामाध्यमेन प्रोक्तं यत् वरिष्ठनेत्रा चक्षुमरेण जो बाइडेन इत्यस्मै कथितं यत् यदि तेन स्वास्थ्यकारणात् निर्वाचनाभियानं त्यज्यते तदा डेमोक्रेटिक दलाय देशस्य च कृते सौकर्यं भविष्यति। डेमोक्रेटिक पार्टीति दलेन नवम्बर मासीय निर्वाचने डोनाल्ड ट्रम्प इत्यमुं सम्मुखीकर्तुं जो बाइडेनः इत्येषः निर्वाचितः। संयुक्तराष्ट्रे भारतेन गाजापट्टी इत्यस्मिन् स्थाने तत्कालतया पूर्णरूपेण च संघर्षविरामः भवेदिति स्वकीया अभ्यर्थना पुनरुच्चारिता अस्ति। भारतीय टेनिस क्रीडकः सुमित नागलः स्वीडिश ओपन प्रतिस्पर्धायां परिभूय बहिर्भूतः। नागलः अद्य सायं पुरुष एकल प्रतिस्पर्धायां अर्जेंटीनायाः मारियानो नवोन इत्यनेन पराजितः। इति वार्ताः।